सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। चित्रा भगिनी,
ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः, हरिः ओम्।
धन्यवादः भगिनि। अस्तु अस्तु, प्रथमतया वयं गृहपाठं पश्यामः। सर्वे गृहपाठं कृतवन्तः वा?
I thought we did the page number 54, the sentences you asked us to make, no?
Kintu etat
this was the previous week.
No, since nobody did that, I put it again for
okay. Ha, this I've done.
Sarve kritavantah va?
I've done something, Bhagini. What is this thing which you put? I didn't see it actually.
Tatra.
Which page is it?
Tatra parisandhiha aham dattavati. Tasya sarva nirupani kantasthi karanam kurva.
Kantasthi karanam I have not done.
I have to look still.
Asta.
Karomi, Shemitam Bhagini, too much to catch up.
Asta. अस्तु, एतत् गृहपाठं पुनः अग्रिमवासरे कुर्वन्तु।
आं भगिनि,
अस्तु, एकनिमिषः। अस्तु, न कृतवान् चेत् वयं गीतासोपानं पश्यामः। अस्तु, अत्र वयं पेज् नम्बर् 56 मध्ये स्मः। दृश्यते वा?
No, it says meeting paused.
ओ, किमर्थम्? एकनिमिषः। अस्तु, इदानीं दृश्यते वा?
आं भगिनि।
अत्र असमानार्थकपदं पृथक् कुरुत। तत्र कानिचन क्रियापदानि सन्ति, तत्र आड् वन् औट् इति करणीयम्। अस्तु, अत्र प्रथमः अस्ति सहस्व, तितिक्षस्व, क्षमस्व। अस्तु, सहस्व इत्युक्ते किम्?
न जानामि।
With you.
न, tolerate अथवा to bear. अस्तु, अनन्तरं तितिक्षस्व इत्युक्ते किं
भगिनी? The word will be sahate.
Yes. किं महोदय अस्तु अनन्तरं तितिक्षस्व इति अस्ति इत्युक्ते किं न जानन्ति to bear atwa forgive
shamasya also will be to forgive na
parantu forgive iti arthah asti parantu usually to bear iti asti
shamasya also
na titikshasva
titiksha so then the swastva and titiksha so almost similar meaning okay kshamasva is to forgive
odd tasya odd one out iti astu idani vadatu bhrutam vashatam modata atra kim
modata
vadatu to say modatam will be
प्रातर्मेलनं वयं कृतवन्तः कः जानाति प्रथमः अथवा द्वितीयः क्रियापदमेव इति चिन्तयामि
modate to desire
to be glad athwa to be happy
oh to happy okay
pungshva bajasva kada bakshaya
bajasva
pungshva kada bakshaya is to eat bajasva
tatra
pungshva is also to eat no bajasva is also
अस्तु अनन्तरं लभस्व आप्नुहि विन्द निन्द
लभस्व
न
लभस्व टु गेट् आप्नुहि आल्सो ऐ थिङ्क् समथिङ्ग् सिमिलर् टु गेट्
टु मेक्
निन्द इस् टु
कोल्ड्
to scold so that must be the different one
so what is vinda vindami
vindati
to receive
to receive oh okay so it's like labhas
to receive okay
kankshani kamai vikshai must be vikshay
but janihi is there
next one will be jahi janihi buddhi nibodha and jahi
everything is kind of off
Bhagini, all these
words... I think Vidhi is the odd one out.
Bhagini, all these words will be in the Gita book?
Itikte Mahadeya.
All these words will be somewhere in the Gita...
Bhagavad Gita.
Iti Nasti. Iti Nasti.
Janihi. Vidhi, Nibodha and Jahi. Janihi, to know.
Vidhi. Vidhi is the odd one.
Nibodha.
Vidhi, Vayam. Pratamadeya Gita Sopane Vayam Pachita Vantaha.
Jahi is the odd one.
Jahi.
Jahi. What does Jahi mean?
Kill.
To kill.
What is Nibodha, Bhagini?
Vidhi.
Jahi means to kill.
अस्तु इच्छानि काङ्क्षानि कामयै
वीक्षै वीक्षै विल् बि डिफ़्रेण्ट् इच्छानि काङ्क्षानि आल्मोस्ट् सिमिलर् कामयै टु डिज़ायर् वीक्षै मीन्स् टु वाट् वीक्षते वीक्षते न
To look,
okay. Vandatam namatu ramatam pranamatu. Vandatam, to pray, namatu is also to pray. Pranamatu also is to pray, so it must be ramatam.
Ramatam.
Must be ramatam.
What is ramatam, Bhagini?
Ramate. Bratramelanam.
Ramante. So, Krida, Las, Ramasva. Krida to play. The Ramasva will be to enjoy, will be similar. Mm. Between Las and Sahasva.
Sahasva is
to tolerate. So that means the Varna. Sahasva, we did the first one. So that will be the odd one.
Sahasva.
Yeah. Kivikshay. Lokai Pashani. Vikshai is to look. Pashani is also to look. Lokai, then it will be Rakshani only. Ninth will be Rakshani.
Munchatu, Jahatu, Hantu, Tyajatu.
Tyajatu. Tyajatu to leave. I think Munchatu and Jahatu is also to something similar to leave. Hantu is to kill, right?
Yes, that's
so
the odd one.
Hantu is the odd one.
Samitina. Yes. Anand, astra prashna hasantiva?
No.
Avikshay, if you take him, Bhagini.
Vikshay, Pashyani.
To see.
To see. Astra. Astra. Etat abhyasam krahapata rupena. कुर्वन्तु अस्तु अनन्तरम् अस्तु कः पठति नागेन्द्रमहोदय भवान् पठतु
यस् भगिनि सोरि
भवान् पठतु अत्र
पाण्डवानां Bangaram, the marker is there.
Shibiram.
Shiviram. Shiviram. Yuddha-sannaha pravartate. Senapati drishtudhyum.
Drishtudhyumnaha.
Suchana dadati. Drishtudhyumnaha. Suchana dadati. Avarane. स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिशति इति लिखति
पाण्डवानां शिबिरं युद्धसन्नाहः प्रवर्तते सेनापतिः दृष्टद्युम्नः सूचनाः ददाति आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिशति इति लिखत उदाहरणमस्ति सूर्योदयः जातः यूयं सर्वे तत्र आवरणे उत्तिष्ठन्ति इति अस्ति, लोट्लकारे उत्तिष्ठत इति. अस्तु, अनन्तरं तत्र युद्धार्थं सज्जाः भवन्ति इति अस्ति. भवन्ति इत्यस्य लोट्लकारः किं भवति?
भवन्तु.
अनन्तरं तं द्वारे तिष्ठसि.
तं द्वारे
तत्र
स्माल् स भगिनि.
प्रथमतया तत्र लोट् लकारे तट्लकारे कुरुत इति
करोतु कुरुतां कुर्वन्तु न
कुरुत. अस्तु, अनन्तरं भीम अद्य भवान् गजसैन्यं नयति.
नयतु.
ईज़ी वन्.
भोः यूयं कवचानि धरत.
ओके. कुरुत 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 अद्य त्वं व्यूहं रचयसि.
सर्वे व्यूहे सज्जाः तिष्ठन्ति.
तिष्ठन्तु.
समीचीनं. यूयं तस्य रक्षणं कुरुत. अश्वदलं तत्र गच्छति.
भगिनी, यु मिस्ड औट् सेनापतिः अग्रे.
हा, अग्रे तिष्ठति. तिष्ठतु देन् तिष्ठतु.
वेर् सेनापतिः अग्रे तिष्ठतु. यूयं तस्य रक्षणं कुरुत.
अश्वदलं तत्र गच्छतु.
भगिनी, केन् यू शो मी द वि आर् ट्रैङ्ग् टु कन्वर्ट् लट् टु लोट्, करेक्ट् भगिनि?
आरोहन्ति.
कुरुतः केन् यू शो अस् द लट् लोट् भगिनि?
पठन्तु, आरोहन्तु.
नो, सो ति तः अन्ति, सीतः थ.
सर्वाणि रूपाणि. एकनिमिषः. अंशः करोतु इति अनन्तरं इदानीम् एतत् लोट्लकारे इदानीं लट्लकारे स्थापयामि.
So the kurutaha in madhyam purush became kurvate.
Kimohadya.
So the
kuruti kuntan kurvanti
kashi. What did it become in
that? Tatra. कुरुत इति अत्र अस्ति, तस्य लोट्लकारे कुरुत. तत्र अत्र अहं करोति इत्यस्य लिखितवती, अत्र कुरुते इत्यस्य
लिखितवती.
आम्
Okay, I'll take a printout.
No, printout na. Tatra bahavah kriyapadani santi.
Okay.
Bhagini, where is this link in the message? It says kriyapad.
Atra. Atra kriyapadani iti asti.
Oh, okay. Thik.
Can you put it on the top, Bhagini?
I just want to put it in which class we used okay. it. So it's up here. अपि लोट्लकारस्य करपत्रम् अत्र अस्ति. अस्तु,
ओके, थेङ्क् यु. कुरुतः
अनन्तरं एते सर्वे व्यूहे
आरोहन्तु. एते सैनिकः गजम् आरोहन्ति, सो इट् विल् बि आरोहन्तु इन् लोट्लक.
भवन्तः कुन्तान्
गृह्णन्ति, गृह्णन्तु.
शत्रून्
मर्दयन्तु,
मर्दयन्तु,
मर्दयन्तु.
आक्रमणं
कुर्वन्तु.
सर्वे दलपतिम्
अनुसरन्तु,
अनुसरन्तु. आज्ञां
पालयन्तु.
शत्रुपक्षे अस्त्राणि
क्षिपन्तु,
क्षिपन्तु. सर्वे अरयः पतन्तु,
पतन्तु. प्रापयथ प्रापयथ
प्राप्तयत
प्रापयत
सायङ्कालात् पूर्वं विजयिनः
भवाम
धर्मरक्षणं
कुर्मः
करवाम
ओके
अत्र प्रश्नाः सन्ति वा न सन्ति चेत् वयम् अत्र अस्तु गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति एतानि उच्चैः पठत एतेषु लोट्लकारस्य रूपाणि अधोरेखया
अङ्कयत्
अत्र वयं केवलं क्रियापदं कुत्र अस्ति इति पश्यामः अर्थं न पश्यामः क्रियापदस्य अर्थं पश्यामः किन्तु वाक्यस्य अर्थं न पश्यामः अस्तु प्रथमः अस्तु योगस्थः कुरु कर्माणि अत्र कुत्र अस्ति अनन्तरं निमित्तमात्रं भव सव्ये साचिन्
सव्ये साचिन् एक्चुअली भव
निमित्तमात्रं
नो भव नैस्त्रैगुण्यो भवार्जुन नैस्त्रैगुणो गुण्यो भवार्जुन
भवार्जुन बीजं मां सर्वभूतानां विद्धि सुलभः चेत्
विद्धि
आम्
विद्धि ओके यथेच्छसि तथा कुरु तर्हि कुरु हि
कुरु अपि
धातु
यथेच्छसि
यथा इच्छसि
इच्छसि
मध्याजी मां नमस्कुरु
नमस्कुरु बुद्धौ शरणं
शरणं
अविञ्च इति विन
अन्विच्च
अन्विच्च अन्विच्च अन्विच्च
तस्मात् उत्तिष्ठ कौन्तेय
तस्मात् उत्तिष्ठ
शृणु मे परमं वचः
शृणु
तमेव शरणं गच्छ
गच्छ
नियतं
कुरु कर्म कुरु
मुक्तसङ्गः
समाचार
न समाचार इति
Is it a Sandhi Bhagini, sam and acharah?
No. I have it as samachara in my
book. Samachara. So what does it mean, this sentence, Mukta Sangha Samachara?
Samachara.
Perform.
Samachara. So, in my book it's Samachara.
तत्र समाचार इति पुस्तके समाचार इति अस्ति, तत्र टैपो इति अस्ति, समाचार एव किं भगिनि
समाचार इत्युक्ते किम्?
ओ इत्युक्ते perform
okay
prefer
no
perform okay
अस्तु. अनन्तरं बुद्धियोगमुपासित्य मच्चित्तः सततं
भव.
अनन्तरं शादि मां
त्वां
शादि तस्मात् त्वम् उत्तिष्ठ यशो लभस्व.
उत्तिष्ठ लभस्व बोध. युध्यस्व यत् तपस्यसि विल् बि देट् अण्ड् कुरुष्व बोध. तपस्यसि अन् कुरुष्व.
अनन्तरं लोकमिमं प्राप्य भजस्व मां.
भजस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं.
भुङ्क्ष्व
मय्येव मनः आदत्स्व. मन्मना भव.
मन्मना भव.
मयि बुद्धं निवेशय.
निवेशय.
अस्तु. अत्र प्रश्नाः सन्ति वा?
न.
अस्तु. अत्र कः पठति? लक्ष्मी भगिनी. अस्तु. राधा भगिनी. राधा भगिनी.
महात्मानः गीताविषये एवं वदन्ति. गीता तत्त्वोपदेशग्रन्थमात्रं न, इदं महत्त्वपूर्णं धर्मविषयकं किञ्चन काव्यम्. किञ्चन काव्यं यः अत्र यथा तथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते. इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम्. अत्र रुचिरा पुनरुक्तिः दृश्यते. महात्मा गान्धिः. गीता इस् नाट् जस्ट् तत्त्व ग्रन्थ. It's a kavya is a literary poetry. Work on dharma. Poetry on dharma. Important poetry on dharma. Yaha atra
yatha yatha adhikam gahate tatha tatha pushkalah artah tena prapyate. As we read more and more
mantra इत्युक्ते किं? गीता इस् नाट्
जस्ट् अ बुक् बट् फिलोसफि ओर् स्टडि आफ् फिलोसफि. ओके. इदं महत्त्वपूर्णं
धर्म
विषयकं किञ्चन काव्यम्. इम्पोर्टेण्ट् पोयम् हूस् सब्जेक्ट् इस् धर्म. ओके.
यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कल अर्थः तेन प्राप्यते. तत्र कर्मणि प्रयोगः अस्ति. तेन प्राप्यते.
he who studies his moran obtains in depth a profound meaning. Okay.
Idam mahantam jana samuham uddeshya eva rachitam.
Written for the great welfare, public, for the welfare of the humanity. The poem,
yeah.
Poem has been composed for the welfare of the humanity, na?
Yeah.
Welfare iti kutra se?
Jana samuham uddeshya.
Mahantam jana samuha uddeshya. Okay, so literally if it's transferred correct, then we'll say great mankind. Okay. Written for the humanity.
Atra ruchira punaruktihi drishyate.
Here profound saying can be seen. Okay.
Asta. Atra prashna ha santiva.
Punaruktihi ityukte saying. Ruchira is profound, punarukti is saying. Okay.
Asta. लोट् लकारस्य विषये प्रश्नाः सन्ति वा अथवा गीतासोपनयं तत्र तत्र अत्र किं किं पठितं तत्र प्रश्नाः सन्ति वा न सन्ति चेत् वयम् अग्रिम अध्यायं गच्छामः कनीं सङ्ख्याः पठामः अस्तु शतपर्यन्तम् अस्तु तत्र किं पञ्चैतानि महाबाहो इत्युक्ते
पञ्चैतानि महाबाहो पञ्च फै Oh, the Panchu Pandavas, great warriors.
Panchetani Mahabhava, the great warriors, the Pandavas, Mahabhava. Valor? Is it valor, Mahabhava?
तत्र
किन्स्मेन्
पञ्च इत्युक्ते फैव् पञ्चः एतानि इत्युक्ते दीस् महाबाहो इत्युक्ते मैटि आर्म्ड्
मैटि मैटि
आर्म्ड्
आर्म्ड्
ओके मैटि आर्म्ड् ओके
इदानीं सङ्ख्याः पठामः अस्तु
पञ्च एतानि महाबाहो
एकतः दशपर्यन्तं चित्रवाणी भवती पठतु
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
समीचीनम् इदानीं लक्ष्मीभगिनी एकादशतः विंशतिपर्यन्तं भवती पठतु
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः
समीचीनम् अनन्तरं नाकिनर् महोदय भवान् एकविंशतिः इदानीं नास्ति
एकविंशति द्वाविंशति त्रयोविंशति चतुर्विंशति पञ्चविंशति षडि
षडि
षडिविंशतिविंशति सप्तविंशतिविंशतिविंशतिविंशतिविंशति
इदानीं एकनिमिषात् ततः तत्र एको अस्ति. अस्तु, पुनः वदतु भगिनि.
षड्विंशति न 26 पञ्चविंशति एण्ड् देन् षड्विंशति न षडिं वसति
तत्र षड्विंशतिः तत्र इट् शुड् बी फार् विंशतिः षड्विंशतिः
षड्विंशति न
गुड् केच् भगिनि
समीचीनं धन्यवादः चित्र भगिनि इदानीं राधा भगिनि एक त्रिंशत्तः चत्वारिंशत् पर्यन्तं वदतु
त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयत्रिंशत् चतुर्विंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्
अनन्तरम् एकचत्वारिंशत्तः पञ्चाशत् पर्यन्तं चित्रभगिनी भवती पठतु.
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट् चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्
समीचीनम्. इदानीं लक्ष्मी भगिनी भवती एकपञ्चाशतः षष्टिः पर्यन्तं पठतु.
एकपञ्चाशत् त्रिपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट् पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः.
समीचीनं. इदानीम् एकषष्टितः सप्ततिः पर्यन्तं नागेन्द्रमहोदय भवान् पठतु.
एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुःषष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः.
समीचीनम्. इदानीम् एकसप्ततिः पर्यन्तम् अशीतिः एकसप्ततितः अशीतिः पर्यन्तं राधा भगिनि.
एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः.
समीचीनम्. इदानीं चित्राभगिनी एकाशीतिः
पर्यन्तं नवतिः
एकाशीतिः नवतिः
पर्यन्तं ओके. एकाशीतिः द्वयशीतिः त्रयशीतिः चतुर्शीतिः
त्र्यशीतिः
त्र्यशीतिः चतुर्शीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः.
इदानीं नवतितः शतपर्यन्तं लक्ष्मी भगिनी.
नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्
समीचीनम् अस्तु अनन्तरम् अत्र प्रश्नाः सन्ति वा
भगिनि 82 द्वयशीतिः वै डस् इट् चेञ्ज् टु द्वय वेन् एव्रिथिङ्ग् एल्स् इस् द्वि आर् द्वा या द्वि
वी विल् लर्न् अबौट् दट् लेटर् भगिनि बट् फर् नौ विल् जस्ट् मेमरैज् आल् दीस् नम्बर्स् अस्तु इदानीम् अभ्यासं कुर्मः अस्तु दृश्यते किल एकनिमिषः दृश्यते वा अस्तु 52 इति आगतम् अस्तु 52 किं भवति चित्र भगिनि
द्विपञ्चाशत्
अस्तु समीचीनम् अनन्तरं लक्ष्मी भगिनि
सप्ताशीतिः
सप्ताशीतिः समीचीनम् किं भवति एतत् नागेन्द्रमहोदय
त्रिसप्ततिः
समीचीनम् इदानीं राधा भगिनी
नवदश
समीचीनम् चित्रा भगिनी
पञ्चचत्वारिंशतः
तः किमर्थं
त्रिंशत् पञ्चचत्वारिंशत्
सप्ततिः समीचीनं सर्वे वदन्तु अस्तु
त्रिपञ्चाशत् अष्टचत्वारिंशत् षट्चत्वारिंशत्
अष्टपञ्चाशत्
नवत्रिंशत् त्रिंशत्
पञ्चविंशति
अष्टादश द्व्यशीतिः सप्ततिः द्विपञ्चाशत् नवविंशतिः द्विषष्टिः सप्तषष्टिः एकचत्वारिंशतः विंशत् द्वाविंशति चत्वारिंशत्
समीचीनम्
पञ्चत्रिंशत् षट्त्रिंशत् त्रीणि चतुःषष्टिः सप्तनवतिः
समीचीनम्
सप्तदश षोडश सप्त
सप्त समीचीनम्
द्वादश पञ्चषष्टिः एकपञ्चाशत् एकम् नव त्रिषष्टिः नवनवतिः अष्ट षड्शीतिः
Vimshati.
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 Trayashitihi. Vimshati.
Ashtasaptatihi. Navashashtihi.
Trayastrimshat.
Ekanavatihi. Ashtanavatihi.
Navasaptatihi. Dasha.
Dvatrimshat.
Navashitihi. Dvinavatihi. Ashitihi. Shashtihi.
Chaturnavatihi.
Ekashitihi.
Ekadasha. Navatihi.
Chatur Saptatihi. Chatur Shitihi. Dve. Shat.
Trimshat.
Ekatrimshat.
Ekatrimshat.
Trayovimshati.
Ashtashitihi. Dvisaptatihi. Sapta panchashat.
Chatur Trimshat.
Trimshat.
Oh, Traya Trimshat. Yes.
Nakatanda.
Chatvari. Chaturvimshati. Vimshati. Vimshati.
Dvichatvarimshat. Panchadasha.
Panchadasha. Panchadasha or Panchadasha? Should Panchadasha, no?
Panchadasha.
Panchadasha, correct one.
66
Trichatvarimshat. Ashta Shashtihi.
Sapta
Chatvarimshat.
Trinavatihi.
Trimshatihi. Chatushpanchashat. Shatpanchashat.
Saptavimshatihi.
Panchashitihi. Panchashitihi.
Panchasaptatihi.
Saptatihi.
Shatam kada.
Trayodasha. Pancha.
Nava panchashat.
Shat. Eka saptatihi.
Shatam.
Eka vimshatihi. Chatushchatvarimshat. Panchanavati, 61
Ekashashtihi. Chaturdasha.
Saptatrimshat. Trimshat. Shatsaptatihi.
Panchashat.
Panchanavatihi. And Shannavatihi.
Shannavatihi. Samichit. Idaniam Chakre Kimapi Nasti.
Shunya.
Shunya.
Atra prashna santiva.
No.
Asta. वयं किञ्चित् गृहपाठः आसीत् किल, किञ्चित् तत् कुर्मः. अस्तु अस्तु. अत्र प्रथमः दश पृच्छति, पश्यति, नयति, लिखति, पिबति, वदति, क्रीडति, पतति, पठति, गच्छति. एतानि क्रियापदानां लट्लकारस्यापि लोट्लकारस्य रूपाणि अत्र दृष्ट्वा लिखन्तु इति उक्तवती. अस्तु, एकनिमिष अत्र. अस्तु, इदानीम् अत्र. अस्तु, प्रथमः अस्ति गच्छति. गच्छति इत्यस्य लोट् लकारस्य रूपं किं?
गच्छतु, गच्छतां, गच्छन्तु, गच्छ, गच्छतं, गच्छत, गच्छामि, गच्छाव, गच्छाम, गच्छामः. लट् लकारः गच्छति, गच्छत, तः गच्छन्ति, गच्छसि, गच्छथ, गच्छथ, गच्छामि, गच्छाव, गच्छाम,
गच्छतु, गच्छतां, गच्छन्तु,
गच्छ, गच्छतं,
गच्छत,
गच्छामि, गच्छाव, गच्छाम.
अस्तु, अनन्तरं पठति,
पठतु.
पठति इत्यस्य लट्लकारस्य रूपाणि वदतु भगिनि, लक्ष्मी भगिनि.
पठति, पठः, पठन्ति, पठसि, पठतः, पठत, पठामि, पठावः, पठामः.
इदानीं लोट्लकारस्य,
लोट्लकारः, लोट्लकाररूपः. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठामि, पठाव, पठाम.
समीचीनं. पठति नागेन्द्रमहोदय.
पतति, पतति, पततः, पतन्ति, पतसि, पततः, पतथ, पठामि, पठावः, पठामि, पठावः, पठामः. पठतु,
पतति,
पठतु.
अस्तु,
पठामि, पठाव, पठाम. लोट्लक भगिनि, पततु, पततां, पतन्तु, पतसि, पततम, पत, पततम,
पततत,
देन् पतानि, पठाव, पठाम.
अनन्तरं क्रीडति, राधा भगिनी.
क्रीडति, क्रीडत, क्रीडन्ति, क्रीडसि, क्रीडत, क्रीडत, क्रीडामि, क्रीडाव, क्रीडाम. लोट्लकारः क्रीडतु, क्रीडतां, क्रीडन्तु, क्रीड, क्रीडतं, क्रीडत, क्रीडानि, क्रीडाव, क्रीडाम.
लोट्लकार भगिनि
कृतवती. अस्तु, इदानीं वदति चित्र भगिनी
वदति वदतः वदन्ति वदसि वदतः वदथ वदामि वदावः वदामि वदावः वदाम वदतु वदतां वदन्तु वद वदतं वदत वदानि वदाव वदाम
समीचीनम् अनन्तरं पिबति लक्ष्मी भगिनी
पिबति पिबतः पिबन्ति पिबत्सि पिबस्थः पिबत पिबामि पिबावः पिबाम पिबामः लोट्लकारः पिबतु पिबतां पिबन्तु पिब पिबतं पिबत पितानि पिदाव पिताम
समीचीनम् अस्तु इदानीं कः नागेन्द्र महोदय लिखति
लिखति लिखतः लिखन्ति लिखसि लिखतः लिखत लिखामि लिखावः लिखामः
समीचीनम्
लिखतु लिखत
आमां
लिख लिखतं लिखत लिखानि लिखाव
समीचीनम् इदानीं नयति राधा भगिनी
नयति नयतः नयन्ति नयसि नयतः नयत नयामि नयावः नयामः नयतु नयतां नयन्तु नय नयतं नयत नयानि नयाव नयाम
चित्रभगिनी
पश्यति पश्यतः पश्यन्ति पश्यसि पश्यतः पश्यथ पश्यानि पश्यावः पश्यामः पश्यतु पश्यतां पश्यन्तु पश्य पश्यतं पश्यत पश्यानि पश्याव पश्याम
अनन्तरं पृच्छति लक्ष्मी भगिनी
पृच्छति पृच्छतः पृच्छन्ति पृच्छतः पृच्छतः पृच्छत पृच्छामि पृच्छावः पृच्छामः पृच्छतु पृच्छतां पृच्छन्तु पृच्छ पृच्छतं पृच्छत पृच्छानि पृच्छाव पृच्छाम
अनन्तरं भवति
भवति भवतः भवन्ति भवसि भवामि भवावः भवामः भवतु भवतां भवन्तु भव भवतं भवत् भवानि भवाव भवाम
अनन्तरं मिलति
मिलति मिलतः मिलन्ति मिलसि मिलतः मिलत मिलामि मिलावः मिलामः मिलतु मिलतां मिलन्तु मिलत मिल मिलतं मिलत मिलानि मिलाव मिलाम
समीचीनम् अत्र प्रश्नाः सन्ति वा अस्तु तत्र गृहपाठः अस्ति एकादशः अभ्यासः कुर्वन्तु अपि एतस्य करपत्रस्य सर्वाणि रूपाणि कण्ठस्थीकरणं कुर्वन्तु अपि लोट्लकारस्य परस्मैपदी अपि आत्मनेपदी क्रियापदानां रूपाणि कण्ठस्थीकरणं कृत्वा आगच्छन्तु अस्तु
ओके
कर्तुं शक्नुवन्ति वा
कण्ठस्थीकरणं सर्वे पदमपि
न तत्र करोति इत्यस्य मोदते रमते इत्यादीनि पुंक्षस्व तत् न अस्तु टेक् सिम्पल् वर्ड्स् भगिनि फोर् परस्मैपदि यु केन् जस्ट् टेक् द हेण्ड् औट् एण्ड् यु केन् डु दीस् क्रियापदम्स् फोर् आत्मनेपदि यु केन् गो टु भ्रातृमेलनम् अगेन् and lamante modate ikshate and toto janite to kamayate prarthayate pratishtate smayate vidyate
himyate kampate
I'll maybe send a list of verbs you can do
that will be better
for parasme padi you have the list I'll send a list for atmane padi because some verbs they have weird things so you won't be able to tell so I'll send a list of verbs those will be the regular like ramate everything that is in will be like ramate and easy
not the vishesha
no not karoti and that and I'll put vishesha kriya padani I'll give like three verbs that you'll have to memorize for that
vishesha
so that then you'll know that that is visheshana अस्तु प्रश्नाः सन्ति वा
न
अस्तु मेबि वी केन् एण्ड् एर्ली 10 मिनिट्स् टुडे
नो प्रोब्लम्
धन्यवादः नमस्कारः वयं प्रार्थनां वद शान्तिमन्त्रं वदामः
शान्तिमन्त्रं
कुत्र कदा अस्तु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी नमस्कारः